इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। लोकसभा निर्वाचनस्य प्रथमचरणस्य मतदानस्य तिथेः पूर्वं निर्वाचन प्रचाराभियानमपि तीव्रं जातम्। प्रमुख राजनीतिक दलानां वरिष्ठ नेतारः अस्मिन् चरणे संभविष्यमाणाय मतदानाय विभिन्नेषु राज्येषु सक्रियतया प्रचारं कुर्वन्ति। प्रमुख राजनीतिक दलेषु भाजपेति दलेनापि युद्धस्तरे स्वीय दलस्य प्रचाराभियानं समारब्धम्। प्रधानमन्त्री अथ च भाजपेति दलस्य वरिष्ठ नेता नरेन्द्र मोदी ह्यः राजस्थान राज्ये कोटपुतली इत्यत्र प्रथमां नैर्वाचनिक जनसभां सम्बोधितवान्। तेनोक्तं यत् यथा चतुर्दशाधिक द्विसहस्रतमे वर्षे नवदशाधिक द्विसहस्रतमे वर्षे च भाजपेति दलेन अस्मिन् राज्ये पञ्चविंशति आसनानि विजितानि तथैव साम्प्रतमपि अस्मिन् निर्वाचने भविष्यति। श्रीमोदी अवदत् यत् एतत् सामान्य निर्वाचनं नास्ति, अपितु विकसित भारत विकसित राजस्थान इत्येतस्य निर्वाचनम् अस्ति। तत्रैव निर्वाचन प्रचारावधौ कांग्रेस प्रदेशाध्यक्ष गोविन्द सिंह डोटासरा, पूर्व मुख्यमंत्री अशोक गहलोत अपि च दलस्य वरिष्ठ नेतार पाली जोधपुरयो प्रत्याशी नामांकन जनसभां सम्बोधितवन्त। निर्वाचनायोगेन असम, बिहार, झारखण्ड, ओडिशा, आन्ध्रप्रदेश राज्येषु कार्यरतेभ्यः आरक्षि अधीक्षकेभ्यः जनपदाधिकारिभ्यः आरक्षि उपमहानिरीक्षकेभ्यः इत्यादिभ्यः पदासनेभ्यः अधिकारिभ्यः स्थानान्तरणादेशः प्रख्यापितः। अयं निर्णयः मुख्य निर्वाचनायुक्तस्य राजीवकुमारस्य अध्यक्षतायां निर्वाचनायुक्तेन ज्ञानेशकुमारेण सुखवीरसिन्धु इत्यनेन च सहजाते उपवेशने आयोगद्वारा निरन्तर समीक्षोपक्रमे गृहीतः। स्थानान्तरित अधिकारिषु असमस्य उदालगिरेः जनपदाधिकारी, बिहारराज्ये भोजपुर जनपदस्य जनपदाधिकारी, आरक्षि अधीक्षकः अपि च बिहारराज्यस्यैव नवादा जनपदस्यापि जनपदाधिकारी आरक्षि अधीक्षकश्च सम्मिलिताः सन्ति। एते अधिकारिणः स्वीय निम्नपद कार्यरतेभ्यः प्राशासनिक अधिकारिभ्यः स्वीय पदभारं दास्यन्ति। भाजपेति दलस्य वरिष्ठ नेता अमितशाहः ह्यः चन्नपटनाक्षेत्रे एकस्याः जनमार्गीय प्रदर्शन्याः नेतृत्वं कृतवान्, याः कर्णाटके बैंगलोर ग्रामीण लोकसभाक्षेत्रस्य अंगत्वेन अभिज्ञायते। अस्यां मार्गीय जनसभायाम् अमितशाहेन सह भाजपा प्रत्याशी डॉ सी एन मंजूनाथः, भाजपा प्रदेशाध्यक्षः बी वाई विजयेन्द्रः अन्ये च जनाः आसन्। अत्रावसरे प्रवदन् श्री शाहः कथितवान् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः गुजरातस्य मुख्यमन्त्रित्वेन तदनन्तरं राष्ट्रस्य प्रधानमन्त्रित्वेन त्रयोविंशति वर्षाणां शासनं भ्रष्टाचाररहितं पवित्रम् अस्तीति। तेनोक्तं भाजपेति दलं विकसित भारतं संवर्धयति, तत्रैव इण्डी संयुक्तदलं भ्रष्टाचारं संवर्धयति। कांग्रेस दलेन आगामी लोकसभा निर्वाचनाय 17 प्रत्याशिनाम् अन्या एका सूची अपि प्रख्यापिता। दलेन अनेन पूर्व केन्द्रीय मन्त्री एम एम पल्लम राजू काकीनाडा लोकसभा क्षेत्रात् सम्मरांगणे अवतारितः। आईपीएल इति क्रिकेट प्रतिस्पर्धायां ह्यः रात्रौ बेंगलुरु नगरस्य एम चिन्नास्वामी क्रीडांगणे जातायां प्रतिस्पर्धायां लखनऊ सुपर जायंट्स दलेन रॉयल चैलेंजर्स बेंगलुरु दलं 28 धावनांकैः पराजितम् इति वार्ताः।